सर्वेभ्यनमस्काराः सिद्धान्तकौमुद्याः तत्पुरुषसमासप्रकरणे चतुर्थः पाठः येनाक्षरसमान्नायम् अधिगम्य महेश्वरात् तत्सं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। षष्ठी तत्पुरुष प्रकरणं अधीयानाः स्मः। षष्ठी इति सूत्रेण पाणिनिना षष्ठी तत्पुरुषः विधीयते। षष्ठ्यन्तं समर्थेन सुबन्तेन समस्यते इत्यर्थः। सो षष्ठी इज अ वेरी जनरल सूत्र विच जस्ट स्टेट्स दैट एनी षष्ठ्यन्त कैन कंबाइन विथ अ सुबन्त। नौ ननिर्धारणे इति सूत्रात् षष्ठी समासस्य निषेधाः उच्यन्ते। सो ही जस्ट एज अ जनरल सूत्र ही स्टेट्स दैट एनी षष्ठ्यन्त कैन कंबाइन एंड देन ही गिव्स नेगेशंस वेयर षष्ठी विल नॉट कंबाइन टू फॉर्म अ कंपाउंड। सो इफ यू नो दीज negations and treat them as exceptions, whatever is left, any other shashtyanta can combine to form a shashti tatpurusha. So, nanirdharane iti prathamam shashti samasa nishedha sutram. Nanirdharane, very obvious, shashti iti anuvartate. Nirdharane ya shashti sa na samasyate iti sutrarthaha. Kim nama nirdharanam? We have already seen Nirdharana, the concept of Nirdharana in Karaka Prakarana. Karaka Prakarana Drishtam Nirdharanam Samudayatu Ekadeshasya Prathakkaranam. So Nirdharana is to separate a part from a group. Okay. So the separation can be based on Jati, Guna, Kriya or Samya. Tad Nirdharanam. Nirdharane Shashti Vibhakti Bhavati Saptami Vibhakti Rapi Bhavati. यद्यपि विभक्ति प्रकरणे अधीतम् इदानीं निर्धारणे या षष्ठी विभक्तिः विद्यते तस्याः समासः न भवति इत्यर्थः। नृणां द्विजः श्रेष्ठः इति उदाहरणम्। नृणां नराणाम् इत्यर्थः, नराणां समुदायः अस्ति, तस्मात् समुदायात् द्विजाः द्विजानां यः भागः सः पृथक् क्रियते श्रेष्ठत्वं निमित्तीकृत्य। एतत्तु जात्या पृथक्करणम्। सो बेस्ड् आन् द क्लास् आफ् एण्टिटीस् यु आर् सेपरेटिङ्ग् द क्लास् आफ् द्विजस् फ्रम् अ ग्रूप् आफ् पीपल् मेन्। इदं निर्धारणं, निर्धारणे नृणाम् इति षष्ठी दृश्यते, तस्याः समासः न भवति इत्यर्थः। सो देर् इस् नो समास वेन् देर् इस् निर्धारण। एण्ड् देर् इस् वन् मोर् थिङ्ग् टु रिमेम्बर् इन् निर्धारण, Nirdharana, it is called Nirdharana only when all the Kriya, there is a Samudaya Vachaka Pada, there is the Ekadesha which you are separating and the basis on which you are separating the Ekadesha from the Samudaya. Only when you have all three, it is called Nirdharana. If you have only two, for example, if you have only Nranam Shreshtaha, Tadatu Samasaha Bhavati, Nr Shreshtaha iti, Purushanam उत्तमः इत्यादि समासः भवति। किन्तु यदा त्रयमपि अस्ति तदैव निर्धारणं, निर्धारणे षष्ठ्याः समासः न भवति इत्यर्थः। अग्रे आर्थिकमस्ति, प्रतिपदविधाना षष्ठी न समस्यते इति वाच्यम्। पुनः एतदपि कारकप्रकरणे अधीतम्। षष्ठीशेषे इत्यनेन उत्सर्गितकतया षष्ठी सम्बन्धसामान्ये षष्ठी विधीयते। पुनः पाणिनिना पृथक् सूत्रैः पुनः पुनः षष्ठी विधीयते। किमर्थं पुनः षष्ठी विधानम् इति पश्यामश्चेत् प्रतिपदविधाना षष्ठी, प्रतिपदम् उक्त्वा पुनः पुनः उक्त्वा, सो स्पेसिफैङ्ग् सम् पार्टिकल् वेर् एवर् पाणिनि हेस् गिवन् षष्ठी विभक्ति, तत्र समासः न भवति। समासनिषेधार्थमेव पुनः षष्ठी विधानम्। अतः षष्ठीशेषे इति शेषलक्षणां षष्ठीं वर्जयित्वा सर्वा षष्ठी प्रतिपदविधान। सो विच् षष्ठी विभक्ति इस् कन्सिडर्ड् टु बि प्रतिपदविधान इफ् यु सी अदर् देन् षष्ठी शेषे एव्रिथिङ्ग् एल्स् any other sutra operating will be called Pratipada Vidhana Shashti, and there is no samasa in such cases. Sarpishah Jnanam Iti Udaharanam Nyovidarthasya Karane Iti Sutrena Shashti Vibhaktihi Vihita Ajnanarthakasya Jnadhatohu Prayoge Karmanah Shashti Bhavati Shamedam Karanasya Shashti Bhavati Iti Sutrarthah. So Sarpisha Janide Ityarthah. So he Atra Jnana Shabdase Pravrittihi Ityarthah Apidattah. So this Shashti is given by a sutra other than Shashti Shesha, and therefore it is called Pratipada Vidhana. Sarpishah Jnanam Ityatra Samasaha Nabhavati. Purana Guna Suhitartha Sadavyaya Tavya Samanadhikaranena Ekameva Padamasti Sutra. Purana Guna Suhitartha Sad Avyaya Tavya Samanadhikaranena. Sapta Padarthaha Santi Shashti Iti Anuvartate Nanidharane Ittasmata Na Ityapi Anuvartate Shashti Samasaha Na Bhavati Ityarthaha Purana Dyarthaihi Sadadibhishta Shashti Na Samasyate Purana Arthaihi Guna Arthaihi Suhitarthaihi. So the Artha here refers to all three. Tatah param sadadibhihi sad avyaya tavya samanadhikaranaihi shashti nam shashtyantam padam na samasyate. Purane satam shashtaha. Puranarthakaha pratyayaha iti uchyante. So purana is where you have in numbers you have something called cardinals and ordinals. You have simple numbers like 1, 2, 3. And then you have forms like first, second, third. So the those things, first, second, third, prathama, dvitiya, tritiya, chaturthi, panchami, shashti. All these are called purana pratyayantaha. Tasya purane dattityadibhihi pratyayaha vihidhiyante. There are certain specific pratyayas which are added to the numbers to get these forms. So they are all called purana pratyayantaha. So purana pratyayantaihi shabdaihi saha shashti na samasyate. Satam shashtaha. Satam iti shashti vibhaktihi. Shashtaha iti purana pratyayantaha. Sixth ityarthaha. So atra shashtyaha samasaha na bhavati ityarthaha. Gune kakasya karshnyam brahmanasya shuklaha. Gunavachakaihi shabdaihi. Where quality is being told. I mean, with the words which indicate quality or guna, shashti, shashtyantasya samasaha na bhavati. Kakasya karshnyam. Krishnasya bhavaha karshnyam. Karshnyam is the blackness of the crow. Kakasya iti shashti vibhaktyantasya. Karshnyam iti gunavachakena shabdena samasaha na bhavati. Evam brahmanasya shuklaha. Kim brahmanasya shuklaha ityasya kaha arthaha. Yada prakaranadina dantaha iti visheshyam jnatam tadeva idam udaharanam. Meaning the white of the brahmin. What is white? Iti prashnaha. Kim shuklam asti? Iti prashne. Yada prakaranadina dantaha iti visheshyam jnatam. Based on context you already know the visheshya. This is dantaha. The teeth of that brahmin are very white. Yathe yada prakaranadina dantaha iti visheshyam jnatam tadeva idam udaharanam brahmanasya shuklaha iti udaharanam. So in this particular phrase brahmanasya shuklaha ityatra shuklatva rupasya gunasyaiva vivaksha asti. So it does not intend to convey what is the noun being qualified, it just intends to convey the quality. So tatrapi gunavachakah shabdah atah tasya shishyantasya tena saha samasah na bhavati brahmanasya shuklah iti prithak eva prayogah. Purana guna tanmadhye anityoyam gunena nishedhah tadashishyam samya pramanatvat ityadi nirdesha. Gunavachakena shabdena समासः न भवति इति यदुक्तं तद् अनित्यम् इति उच्यते. इट् डस् नाट् अप्लै एव्रिवेर्. इट् इस् सम् केसेस् वेर् इट् अप्लैस् अण्ड् सम् वेर् इट् डस् नाट्. हौ डु वि नो? तदशिष्यं संज्ञाप्रमाणत्वात् इत्यादि निर्देशः. सूत्रमस्ति पाणिनीयं सूत्रं तदशिष्यं संज्ञाप्रमाणत्वात्. प्रथमाध्यायस्य द्वितीयपादे इदं सूत्रमस्ति. संज्ञाप्रमाणत्वात् इति प्राणिनिना उपयुक्तम्. कः अर्थः? संज्ञायाः प्रमाणत्वं, संज्ञाप्रमाणत्वम् इति समासः. संज्ञायाः इति षष्ठी, प्रमाणत्वं प्रमाणस्य भावः. द क्वालिटि आफ् बीङ्ग् प्रमाण इस् काल्ड् प्रमाणत्व. प्रमाणत्व इस् गुणवाचक. संज्ञायाः इस् षष्ठ्यन्त. षष्ठ्यन्तस्य गुणेन सह समासः पाणिनिनैव कृतः. So based on that, we can decide that this nishedha with the gunavachaka shabda is not compulsory. Sarvada nishedha iti nasti. Tena arthagauravam buddhimandhyam ityadi siddham. Prasiddhaha shabdaha arthagauravam. Bharaver arthagauravam. Arthasya gauravam. Guroha bhavaha gauravam. So gaurava is a quality of being heavy. Heaviness. I mean, not here, it is not heaviness. It is filled with meaning ityarthe. सः गुणवाचकशब्दः. अर्थस्य गौरवम् इति समासः कथम् इति चेत् गुणेन निषेधः अनित्यः, तस्मात् समासः भवति. बुद्धिमान्द्यम्, बुद्धेः मान्द्यम्. बुद्धिमान्द्य इस् रिटार्डेड्नेस् आफ् इण्टेलिजेन्स् इत्यर्थे. तत्रापि मान्द्यम् इति गुणं वक्ति. तेन सह अपि समासः दृश्यते. सो देर् आर् केसेस्, मेनी केसेस् वेर् वि सी समासः हेपनिङ्ग् वित् गुणवाचक. सो दो दे केन् बि सब्स्टान्शियेटेड् बिकास् द निषेध फार् समास वित् गुणवाचक इस् अनित्य. पूरण गुण सुहितार्थ. सुहितः नाम तृप्तिः इत्यर्थः. सो तृप्त्यर्थकैः शब्दैः सह षष्ठ्याः समासः, षष्ठ्यन्तस्य समासः न भवति. फलानां सुहितः, तृप्तः इत्यर्थः. फलं, फलानि खादित्वा तृप्तिः जाता इत्यर्थः. फलानां सुहितः. अत्र करणत्वस्य अविवक्षायां शेषे षष्ठी. वस्तुतः फलैः सुहितः इति भवेत्. हि इस् सेटिस्फैड् वित् फ्रूट्स्. तत्र फलानि तृप्तेः करणम्. यदा तु करणत्वं न विवक्ष्यते. आल्रेडि सीन् विवक्षातः कारकाणि भवन्ति. सर्वेषां कारकाणां विवक्षा भवेत् तदैव कारकं भवति. तत्र तु करणत्वं न विवक्षितं चेत् सम्बन्धसामान्ये नाम शेषे षष्ठी भवति. अतः फलानां सुहितः इति षष्ठी अस्ति. तस्याः षष्ठ्याः समासः न भवति इत्यर्थः. तृतीया समासस्तु स्यादेव. यदा करणत्वं विवक्षितं भवति, वेन् करणत्व इस् इण्टेण्डेड्, तदा करणे तृतीय कर्तृकरणयोः तृतीया इत्यनेन तृतीया विभक्तिः भवति. फलैः सुहितः इति कर्तृकरणे कृता बहुलं. कर्तरिकरणे च या तृतीया, सा कृद्भिः समस्यते. सुहितः इति कृदन्तम्. अतः तेन सह समस्यते इति उक्तत्वात् फलसुहितः इति समासः भवति. किन्तु विवक्षा तत्र करणत्वस्य विवक्षा. यदा तु फलानां सुहितः इति षष्ठी विभक्तौ व्यस्तप्रयोगः, तदा करणत्वस्य विवक्षा नास्ति, केवलं शेषत्वस्य विवक्षा इत्यर्थः. कः विशेषः? कथञ्चित् फलानां सुहितः इति वा विग्रहः भवतु, फलैः सुहितः इति वा भवतु, फलसुहितः इति समासस्तु भवति इति उक्तम्. किमर्थं निषेधः, किं प्रयोजनम् इति चेत् स्वरे विशेषः भवति. तृतीया समासः यदि भवति तर्हि भिन्नः स्वरः. यदि षष्ठी समासः तर्हि भिन्नस्वरः. सो यु केन् फैण्ड् इट् ऐ मीन् फैण्ड् द अप्लिकेशन् आफ् दिस् इन् द वेदस्. तृतीया समासः विल् केरि अ डिफरेण्ट् एक्सेण्ट् एण्ड् षष्ठी समासः विल् हेव् अ डिफरेण्ट् एक्सेण्ट्. सो देर् इस् अ पर्पस् इन् प्रिवेण्टिङ्ग् षष्ठी समासः. वेदर् इट् इस् तृतीया आर् षष्ठी केन् बि नोन् फ्रम् द स्वर. सो षष्ठी समासः न भवति, तृतीया समासः, तृतीया तत्पुरुषस्तु भवति इत्यर्थः. सत् पूरणगुणसुहितार्थ सत् इत्यस्ति. द्विजस्य कुर्वन् कुर्वाणो वा इति उदाहरणम्. सत् नाम किम्? तौ सत् इति पाणिनीयं सूत्रम्. शत्रुशानचौ सत्संज्ञौ स्तः. प्रत्ययात् शत्रु एण्ड् शानच् वर्तमानार्थे यौ प्रत्ययौ कृत् प्रत्ययौ विहितौ शत्रु इति प्रत्ययः शानच् इति उभयोः सत् इति संज्ञा दीयते पाणिनिना. सो हि काल्स् देम् एस् सत्. सो सत् इत्यनेन शत्रुप्रत्ययान्तः शानच् प्रत्ययान्तश्च गृह्यते. ताभ्यां सह षष्ठ्यन्तस्य समासः न भवति. द्विजस्य कुर्वन् द्विजस्य कुर्वाणः किङ्करः इत्यर्थः. हि हु डस् सम्थिङ्ग् फार् द द्विज, दट् इस् हि हु सर्व्स् द द्विज. तत्र कुर्वन् इति शत्रन्तं, कुर्वाणः इति शानजन्तम्, उभयोः समासः न भवति. अव्ययं सत् अव्यय अव्ययेन सह षष्ठ्यन्तस्य समासः न भवति. ब्राह्मणस्य कृत्वा कृत्वा इति क्त्वान्तम् अव्ययम्, तेन सह षष्ठ्यन्तस्य समासः न भवति. पूर्वोत्तरसाहचर्यात् कृतव्ययमेव गृह्यते, तेन तदुपरि इत्यादि सिद्धम् इति रक्षितः. नौ प्रयोग तदुपरि, तस्य उपरि तदुपरि इति उच्यते. तस्य इति षष्ठ्यन्तम्, उपरि इति अव्ययम्, षष्ठ्यन्तस्य समासः कृतः. कथं तस्य प्रयोगस्य साधुत्वम् इति प्रश्नः. तदा उच्यते पूर्वोत्तरसाहचर्यात् कृतव्ययमेव गृह्यते. साहचर्यनियमः इति किञ्चिदस्ति. रिकाल् साहचर्यनियम वेर् वेन् द मीनिङ्ग् आफ् अ वर्ड् इस् नाट् क्लियर्, वेन् देर् इस् एम्बिग्युटि, वि डिसैड् द मीनिङ्ग् बेस्ड् आन् द असोसियेटेड् वर्ड्स्. सो हियर् देर् इस् वर्ड् काल्ड् अव्यय. पूर्व उत्तर साहचर्यात् बिफोर् अव्यय पाणिनि हेस् टोल्ड् सत्. Sat refers to Shatru and Shanach, which are both Krit Pratyayas. And after Avyaya, Sad Avyaya, Tavya ityasti. Tavya Pratyaya, Saha api Krit Pratyaya. So before this Avyaya and after this Avyaya, Panini is referring to Krit Pratyaya. So by that Sahasarya, we determine that the Avyaya also refers to a Krit Avyaya. Kritantam Avyayam. Kva, Lyap, Tumun. Ityetani Kritanta Avyayani. Eteshameva Krahanam. So this nishedha, shashti samasa nishedha is for kridavyayas. Kridavyayaihi saha shashchantasya samasaha na bhavati. Tadupari ityatra upari iti avyayam, natu kridavyayam. Ataha tena saha samasaha bhavati ityartha. Tena tadupari ityadi siddham iti rakshitaha, iti prayogaha rakshitaha. So that prayoga, such prayogas can be substantiated by this argument. Agre tavya ityasti. ब्राह्मणस्य कर्तव्यम्. कर्तव्यम् इति कृधातोः तव्यप्रत्यये कृते निष्पन्नः शब्दः. तेन सह समासः न भवति. अत्रापि विशेषः अस्ति. देर् आर् टु प्रत्ययस्, तव्यत् अण्ड् तव्य. एकेनैव सूत्रेण विधीयन्ते. तव्यत् तव्य अनीयरः इति सूत्रम्. तव्यत् इति एकः प्रत्ययः, तव्य इति अपरः प्रत्ययः. तकारः एकस्मिन् प्रत्यये तकारस्य इत्संज्ञा विद्यते, अपरस्मिन् तु तकारस्य इत्संज्ञा नास्ति इति विशेषः. बिट्वीन् तव्यत् अण्ड् तव्य देर् इस् नो डिफरेन्स् इन् रूप. रूपे कदापि भेदः न दृश्यते. सर्वेभ्यः धातुभ्यः यदा एतौ प्रत्ययौ विधीयते तदा रूपं तु समानमेव भवति. तर्हि कः विशेषः इति चेत् स्वरे भेदः अस्ति. तव्यत् इति तित् तकारः इत्संज्ञकः, तेन भिन्नस्वरः भवति. तव्यप्रत्ययान्तस्य भिन्नस्वरः. अत्रापि तव्यप्रत्ययेन सह समासः निषिध्यते. ब्राह्मणस्य कर्तव्यम्, किन्तु तव्यता तु भवत्येव. यदि तव्यत् प्रत्ययः, तेन सह समासः भवति. अत एव स्वकर्तव्यम् इति रूपम् अस्ति. स्वस्य कर्तव्यं, स्वकर्तव्यम्. तत्र षष्ठ्यन्तस्य तव्यत् प्रत्ययेन समासः. सो द डिफरेन्स् अगेन् इस् इट् समास, इफ् इट् इस् समास वि It has to be tavyat. Vyasta prayogaschet tavya pratyaya api bhavitum arhati, tavyat api bhavitum arhati. Samasaschet tavya deva. Kaha visheshaha iti chet svare bhedaha. Yadi tavya pratyayena saha samasaha syat, tada svaraha bhinnaha syat, na bhavati samasaha. Tavyat pratyayena tu samasaha bhavati. Anta eva brahmana kartavyam iti rupam bhavati. किन्तु तत्र स्वरे विशेषः दृश्यते। पूर्ण गुण सुहितार्थ सदव्ययत्वव्य समानाधिकरणेन तक्षकस्य सर्पस्य समानाधिकरणेन समासः न भवति। समानाधिकरण इन दिस केस रेफर्स टू समान विभक्ति। समान अधिकरण इज व्हेन टू थिंग्स आर रेफरिंग टू द सेम थिंग। अधिकरणं यदा समानं भवति तदा समानाधिकरण्यम् इति उच्यते। अत्र तु समानाधिकरणम् इत्यनेन समान विभक्तिः विभक्त्यन्तमेव दृश्यते। सो वेन् टु थिङ्ग्स् आर् इन् द सेम् विभक्ति वि काल् देम् अस् बीङ्ग् समानाधिकरण टु ईच् अदर्। समानाधिकरणेन समासः न भवति। तक्षकस्य सर्पस्य, तक्षकस्य इत्यपि षष्ठ्यन्तं, सर्पस्य इत्यपि षष्ठ्यन्तं, तदानीं समासः न भवति। So there are several things here. Visheshana samasastu iha bhula grahanat na. Takshakashchaso sarpascha, athava takshaka iti sarpaha iti prayogahasti iti samasaha bhavati. So this, instead of this takshakasya sarpasya, there is a samasa which we call, which is karmadharaya samasa. Visheshanam visheshena bahulam ityanena samasaha bhavati. यथा अयोध्या इति नगरी अयोध्या नगरी, तथा तक्षक इति सर्पः तक्षक सर्पः इति रूपम् अस्ति। नौ इफ् यु डिक्लैन् द रूप फार्म्स् आफ् तक्षक सर्पः, तक्षक सर्पः, तक्षक सर्पो, तक्षक सर्पाः इत्यादिना रूपाणि भवन्ति, वेन् यु कम् टु षष्ठी विभक्ति इट् वुड् फार्म् द रूप फार् तक्षक सर्पस्य। You have to know the difference. Takshakasya sarpasya ityatra samasaha na bhavati iti nishidhyate. Yadi samasaha bhavati tabhi kim rupam syat? Takshaka sarpasya iti rupam syat. If you do a samasa in takshakasya sarpasya, if you do a shashti samasa, takshaka sarpasya iti rupam bhavitum arhati, saha na bhavati iti anena nishidhyate. Fine. Tanmastu samanadhikara, visheshana samasam, nama karmadharaya samasam kurmaha. Let us do karmadharaya samasa. डू द समास तक्षक सर्प यथा नील मेघ नील मेघ तक्षक सर्प तक्षक सर्पति तस् पद से षी विभक्त तक्षक सर्पति खलु किं साधित अनेन निषेधेन प्रश्न। सो वेन वी डू सच अ थिंग वेन वी डू विशेष समास एंड डिक्लेन इट इन षी विभक्ति तदेव रूपं सिद्ध्यति तक्षक सर्पति तरी किम निषेध इति प्रश्नः। तदा उच्यते विशेषणसमासस्तु इह बहुलग्रहणात् न। विशेषणसमासः नाम कर्मधारयसमासः। कर्मधारयसमासः इस् आल्सो काल्ड् विशेषणसमास बिकास् इन् अ मेजारिटि आफ् केसेस् इट् इन्वाल्व्स् अ विशेषणम् एण्ड् सूत्र इट्सेल्फ् इस् विशेषणं विशेष्येण बहुलम् एन् एड्जेक्टिव् कम्बैन्स् वित् द क्वालिफैड् नौन् इत्यर्थः कर्मधारयसमासविधायकसूत्रस्य। तत्र तस्य प्रवृत्तिः षष्ठी विभक्तौ न भवति इति उच्यते। किमर्थम् बहुलग्रहणात् विशेषणम् विशेष्येण बहुलम् इति सूत्रे बहुलम् इति उच्यते। बहुलम् इस् अ वेरि स्पेशल् वर्ड्। गतसप्ताहे अपि दृष्टम् कर्तृकरणे कृता बहुलम्। बहुलम् इति उक्ते विशेषः भवति। क्वचित् प्रवृत्तिः, क्वचित् अप्रवृत्तिः, क्वचित् विभाषा एक्स्क्यूस् मी क्वचित् अन्यदेव इति बहुल बहुलग्रहणस्य प्रयोजनानि उच्यन्ते। सो बहुलग्रहण केन् बि चूसन् केन् बि यूस्ड् टु जस्टिफै ए वेरैटि आफ् प्रयोगास्। सो बहुलग्रहणात् बिकास् द विशेषणसमासः दट् बहुलग्रहण अत्र षष्ठी विभक्तौ रूपाणि न भवन्ति। यु केनाट् यूस् सच् फार्म्स् इन् षष्ठी। द फस्ट् थिङ्ग्। अतः तक्षकसर्पस्य इति रूपं नास्ति इत्येव अर्थः। So what he intends to say is the whether you do the Shashti Vibhakti form of a Visheshana, Visheshana Samasa, or you try to do a Shashti Samasa itself, either of them will not work. Takshaka Sarpasya iti rupam na bhavati. Takshaka Sarpaha ityasti rupam. All other Vibhaktis are there. But in Shashti Vibhakti, there is no form. You have to use it separately. Vyasta Prayogaha eva bhavati. Takshakasya Sarpasya. गोर्धेनोः इत्यादिषु पोटायुवती इत्यादीनां विभक्त्यन्तरे चरितार्थानां परत्वाद् बाधकः षष्ठी समासः प्राप्तः सोपि अनेन वाद्यते. This is another example where he says गोहु देहिनोः. Just like तक्षकस्य सर्पस्य, you have separate प्रयोग as गोहु धेनोः. गो शब्दस्य धेनु शब्देन सह समासः भवति. गोधेनुः इति समासः अस्ति. कोटा युवति स्तोक कतिपय दृष्टिधेनु इत्यादिना सूत्रेण विधीयते. We'll study this sutra later. So this part will probably become clear only after we study them. But this sutra gives the samasa for go shabda with dhenu shabda. Gohu dhenuhu. Go shabdasya dhenu shabdasya sa athe bhedahasti. Even though we use go and dhenu as synonyms. Kevalam गौः इत्यर्थे एव धेनुशब्दस्यापि प्रयोगः अस्माभिः सामान्यतया क्रियते, किन्तु वस्तुतः विशेषः अस्ति. गौः रेफर्स् टु एनी कौ. धेनुः सकृत्प्रसूता इत्युच्यते. कौ विच् हस् हेड् वन् काफ् इस् काल्ड् धेनु. इट् इस् नाट् जस्ट् एनी कौ. सो देर् आर् डिफ्रेण्ट् कैण्ड्स् आफ् कौस्. ऐ मीन् देर् आर् डिफ्रेण्ट् नेम्स् फार् द कौ डिपेण्डिङ्ग् आन् इट्स् whether it had one calf or more than one calf, etc. So, dhenu hu ityase sakrit prasuta ityarthaha asti. So, go, the word go and dhenu are not synonymous. I mean, you might ask why govuhu and dhenu hu. So, the word go means something else and dhenu ityase api vishishtaha kashtanarthaha vidyate. So, tayohu samase krite go dhenu hu iti bhavati. तस्य षष्ठी विभक्तौ अपि, जस्ट् लैक् ऐ सेड्, तक्षकसर्पः इति विशेषणसमासे कृते षष्ठी विभक्तौ रूपं न भवति, तक्षकसर्पस्य इति न भवति. तथैव अत्रापि गोधेनुः इति समासः कृतः, तथापि षष्ठी विभक्तौ गोधेनोः इति समासः इति प्रयोगः नास्ति. इन् षष्ठी विभक्ति द प्रयोग इस् आल्वेज् सेपरेट् एस् गोः धेनोः. गोः इत्यपि षष्ठ्यन्तं, धेनोः इत्यपि षष्ठ्यन्तं, व्यस्तः एव प्रयोगः. किमर्थमिति चेत् गोर्धेनोः इत्यादिषु पोटा युवति इत्यादीनां विभक्त्यन्तरे चरितार्थानां दिस् सूत्र, द सूत्र विच् गिव्स् द समास फार् गो एण्ड् धेनु, इट् अप्लैस् इन् अदर् विभक्तीस्. विभक्त्यन्तरे चरितार्थानां, सो द पर्पस् आफ् दिस् सूत्र इस् टु गिव् द फार्म्स् आफ् गोधेनु इन् अदर् विभक्तीस्. षष्ठी विभक्तौ तु परत्वाद् बाधकः षष्ठी समासः. इन् षष्ठी विभक्ति देर् इस् अ क्वश्चन्, शुड् वी डू दिस् पोटायवती समास और् शुड् वी डू षष्ठी समास. तदा परत्वात् ऐ टोल्ड् यस्टर्डे दट् द षष्ठी समास हस् प्रकरण हस् बीन् मूव्ड् टु द सेकेण्ड् पाद बै पाणिनि. आल् अदर् समास विधायक सूत्र, दट् इस् मोस्ट् स्टार्टिङ्ग् फ्रम् द्वितीया टु सप्तमी एण्ड् कर्मधारया एण्ड् द्विगु, आल् द समास आर् टोल्ड् बै पाणिनि इन् द फस्ट् पाद आफ् the second chapter. Shashti samasa vidhanam su dvitiya adhyayasya dvitiya pade asti. Paratvati shashti samasa ha badhakaha. So shashti samasa overrules other samasas because of paratva. So sopi anena variyate. Anena nama samadhikaranena iti nishedhena saha api arthat goho dhenohu iti shashti vibhaktau samasa ha variyate. So therefore in shashti vibhakti, when you are using shashti vibhakti form, it has to be separate. Vyatyena iva, vigrahena iva prayogaha. Gohu dhenoho. Takshatasya sarpasya ityad dayaha eva prayogaha karaniyaha. Eta adrisham prayogaha nabhavati. Iti uchyate. Any questions? Godhenoho iti karmadharayaha satyam. Gohu dhenoho iti astaha. Iti vigrahaha. It is one type of karmadharaya, but the sutra giving the samasa is potayavati, etc. Vivakshaka ityukte, it is a cow which has had has one calf. A cow which has one calf is called godhenu. Actually, Dhenu itself does not mean, need not necessarily mean a cow. Okay, so that is the catch here. Dhenu is not just a cow. It can mean many animals, many different animals which have had one calf. One, well, whatever you call calf. It refers to the whole class of cattle. Any different type of, there are many different animals which are included in the term Dhenu. It need not necessarily mean a cow at all. So, Godhenu means it is a cow and it has had one calf. So, the word Dhenu is used for other animals also. Sakrut Prasuta ityarthe anyesham praninam vishaye api Dhenu shabdasya prayogaha asti. Kevalam gohu. Prasiddha prayogastu gohu ityarthe eva asti. Tathapi anyesham praninam api Dhenuhu iti prayogaha drishyanti. Any other questions? Purana guna suhitartha sadavyaya sadhya samanadhi karanena shushti na krena cha pujayam trini padani santi shushti iti anuvartate na nidharane ityataha na ityapi anuvartate Pujayam ktena, ktena namakta pratyayantena shashti samasaha na bhavati. Pujayam ityanena kim vivakshitam. Mati buddhi pujarthebhyascha iti sutrena vihitaha yaha ktaha tadantena shashti na samasyate. This is the sutra mati buddhi pujarthebhyaha, matyarthakebhyaha, buddhiyarthakebhyaha, pujarthakebhyascha. Vartamana kale ktapratyaha bhavati. Ktapratyaya usually it is given in the past tense. Bhutakalarthe ktapratyaha bhavati. Saha gataha, saha patita, tena patitaha ityadishu. But vartamana kalarthe bhi ktapratyaha asti. Mati buddhi pujarthe bhyascha. Mati nama gauravam. Gauravarthakaihi, buddhirthakaihi, jnanarthakaihi, sakhaiva pujarthakaihi. Tebhyaha, tebhyaha, shabdebhyaha. Vartamana kale ktapratyaha vihiyate. Mataha ityukte, he is respected ityarthaha. He was respected iti na. Evam buddhaha pujitaha iti vartamane kapratyaha. Tena saha samasaha na bhavati. Ragyam mataha buddhaha pujitova. Ragyam mataha ityukte, he is a person who is respected by the kings. Ragyam buddhaha, who is known even to the kings. Ragyam pujitaha, who is worshipped by the kings. So, eteshu artheshu vartamana kale yahakta pratyaha asti tena saha samasaha na bhavati. Matra shashti katham, prasya vartamane, vartamana kale yahakta pratyaha tena tatsamata shashti vibhaktihi bhavati iti sutrena shashti vibhaktihi vihita, vibhaktihi bhavati tasya samasaha na bhavati. Rajapujitaha ityadautu bhutena ktantena tritiyantasya samasaha. But there is a word, Raja Pujitaha. How do we derive it? Ragya Pujitaha. Athava Rajabhihi Pujitaha iti vigrahe. Kartra karane krita bhulam ityanena. Karta, Raja iti karta. Kartari tritiyantasya. Kapratyantena saha. Bhutakale, bhutakradam tena saha samasaha. So there the kapratya is in bhutakalartha. So he was worshipped ityarthaha. Bhutakalartha tatra drishyate. Kattari tritiya vibhaktihi samasaha bhavati. Atra tu vartamane yaha taprateyaha tasya yoge shashti vibhaktihi bhavati tasya samasaha na bhavati. Adhikarana vachinacha iti agrimam sutram padadvayam asti punaha bahu sulabham shashti iti anuvartate na iti anuvartate Ktena ityapi anuvartate. Ktapratyayantena. Adhikarane eha ktapratyayaha. Tena saha api shashti samasaha na bhavati. Ktena shashti na samasyate. Adhikarana vachina ktena ityarthaha. So ktapratyayanta which is given in the sense of adhikarana. Tena saha api samasaha na bhavati. इदमेषाम् आसितं गतं भुक्तं वा। इदमेषाम् आसितम् आस उपवेशने इति धातुः। इदमेषाम् आसितम् इत्यस्य कः अर्थः? अत्र ते उपविष्टवन्तः। सो दे साट् हियर् इति अधिकरणार्थे क्तप्रत्ययः आसितम् इति। एवम् इदमेषाम् गतम् इत्युक्ते अत्र ते गतवन्तः इत्यर्थः। इदमेषाम् भुक्तम् इत्यत्रापि। सो इन् आल् दीस् केसेस् सिन्स् इट् इस् अधिकरणवाचकक्तप्रत्यय समासः न भवति। एषाम् आसितम् षष्ठ्यन्तस्य समासः न भवति इत्यर्थः। अत्रापि अधिकरणवाचिनश्च इति सूत्रेण षष्ठी। Always study samasas with reference to the karaka prakarana or vibhakti. It is revision and you will understand better. Atra katham shashti vibhakti hi katham iti eva prashna ha. Esham asitam iti katham iti chet. Adhikarana vachinascha iti sutram asti. Adhikarana vachinaha sa pratyasya yoga shashti vibhakti hi bhavati. Okay? Ataha shashti bhavati samasaha na bhavati. Prashna asti rajapujitasya iti bhana bhavati va bhavati. समानाधिकरणे एव निषेधः। द निषेध इस् ओन्ली फोर् समानाधिकरण समास। इफ् यू से राजा पूजितः तदानीं राजपूजितः इति रूपं न भवति, तद्भिन्नम्। सो वेर् दर् इस् समानाधिकरण समास तत्रैव षष्ठी निषेधः। राजपूजितः इति समानाधिकरणः समानसः नास्ति। तृतीया समासः राज्ञा पूजितः इति, तत्र तु षष्ठीविभक्तौ प्रयोगः भवति। राजपूजितस्य इति भवत्येव। कर्मणि च द्वयं षष्ठी इति अनुवर्तते न निर्धारणे इत्यतः न इत्यपि अनुवर्तते। उभयप्राप्तौ कर्मणि इति या षष्ठी सा न समस्यते। रिमेम्बर् उभयप्राप्तौ कर्मणि। कर्तकर्मणोः कृति इति सूत्रेण कर्तरि या षष्ठी विभक्ति, कर्तरि षष्ठी विभक्तिः भवति, कर्मणि अपि षष्ठी विभक्तिः भवति इति उक्तम्। उभयप्राप्तौ यत्र तु कर्तृपदमपि अस्ति कर्मपदमपि अस्ति तदा कर्मण्येव षष्ठी भवति, न तु कर्तरि। कर्तृपदस्य तृतीया भवति, कर्मपदस्य षष्ठी विभक्तिः भवति। उभयप्राप्तौ कर्मणि इति उच्यते। तेन सूत्रेण यत्र कर्मणि षष्ठी विभक्तिः विधीयते तत्र समासः न भवति। आश्चर्यं गवां दोहः गोफेन। इदमेव उदाहरणं दत्तम् उभयप्राप्तौ कर्मणि इति सूत्रस्य। इन् द कारकप्रकरण फोर् दिस् सूत्र उभयप्राप्तौ कर्मणि स्टडी द सेम् उदाहरण। अगोपेन गवां दोहः। सो गोपः गौ गां दोग्धि। द कौ हर्ड् मिल्क्स् द कौ। गोपः अथवा अगोपः इति कर्तृपदम्, गौः कर्मपदम्, दोहः इति दोहनक्रिया अस्ति। इदानीं कर्मणः अपि षष्ठी प्राप्नोति, कर्तुः अपि षष्ठी प्राप्नोति। उभयप्राप्तौ कर्मणि इत्यनेन कर्मपदस्य अर्थात् गोशब्दस्य षष्ठी अस्ति, गवां दोहः इति। कर्तृपदस्य तु कर्तकर्णयोः तृतीया इत्यनेन तृतीया। अगोपेन गवां दोहः आश्चर्यम् इति। इदानीं गवां दोहः इत्यस्ति, तत्र गोदोहः इति न भवति। उभयप्राप्तौ कर्मणि इति या षष्ठी सा न समस्यते। गवां दोहः इत्येव वक्तव्यम्। If you just have gavam dohaha, if the prayoga is only gavam dohaha, karmani shashti bhavati, go dohaha iti rupam bhavati. Kintu yada kartrupadasya api prayoga asti, tada ubhaya praptau karmani ityanena yadi karma padasya shashti bhavati, tasya samasaha nasti. Ascharyam gavam dohaha agopena. Sridakabhyam kartari iti अग्रिमं सूत्रम्। वी आलरेडी रेफर्ड् टु दिस् सूत्र एण्ड् वी आर् डूयिङ्ग् याजकादिभिश्च। याजकादिभिश्च इत्यत्र किमुक्तम्? त्रिजकाभ्यां कर्तरि इति निषेधस्य प्रतिप्रसवः। टु ओवर् रूल् दिस् निषेध पाणिनि इन्क्लूडेड् द याजकादिगण। सो अत्रापि षष्ठी समासः न भवति इति निषेधः। कर्तृर्थ त्रिजकाभ्यां षष्ठ्याः न समासः। कर्तृर्थे यः तृच् प्रत्ययः, कर्तर्थे यः अकः। अक इस् नाट् अ डैरेक्ट् प्रत्यय। तच् इस प्रत्यय अक इति साक्षात् प्रत्यय न वेरेवर प्रत्यय हेज वु इन इट यत्र यत्र प्रत्ययस्य प्रत्यये वु इति श्रूयते वकारोत्तरः अकारः तत्र तस्य स्थाने युवोरमाकौ इत्यनेन अकादेशः भवति सो इफ यू हैव नुल नुल इत्यत्र वु इति श्रूयते तस्य स्थाने अक इति भवति सो द मोस्ट कॉमन प्रत्यय ऑफ फॉर अक इज नुल अक इज जनरली डिराइव्ड फ्रॉम नुल देयर आर अदर प्रत्ययस व्हिच हैव वु व्हिच विल बी रिप्लेस्ड बाय अक कर्तृत्वे एतत्च प्रत्ययः अक इत्यनेन नूल् प्रत्ययः स्वीक्रियते तत्र षष्ठ्याः समासः न भवति अपां स्रष्टा सृज् धातुः दृच् प्रत्यये स्रष्टा इति भवति अपां स्रष्टा आपः सृजति इत्यर्थे कर्मणि षष्ठी सो दिस् इस् कर्मणि षष्ठी द तृच् प्रत्ययः इस् कर्तरि यु शुड् आल्वेज् रिमेम्बर् वेर् कर्मणि च इत्यत्र उभयप्राप्तौ कर्मणि इत्यनेन यत्र कर्मणि षष्ठी विधीयते तत्र निषेधः अत्र तु कर्तरि यत्र तृच् प्रत्ययः अस्ति तेन प्रत्ययेन सह समासः निषिध्यते त्रिजगाभ्यां कर्तरि इत्यनेन सो अपां स्रष्ट इत्यत्र कर्मणि षष्ठी तृच् प्रत्यय कर्तरि तृच् प्रत्ययः तेन सह समासः न भवति वज्रस्य भर्ता अत्रापि कर्तरि तृच् प्रत्ययः भर्ता इति वज्रस्य इति कर्मणि षष्ठी समासः न भवति ओदनस्य पाचकः पचति इति पाचकः कर्त्रर्थे नूल् प्रत्ययः तस्य अकादेशः तेन सह समासः न भवति कर्तरि किम् इक्षूणां भक्षणम् इक्षुभक्षिका कर्त्रर्थे यत्र तृच् प्रत्ययः अस्ति तत्रैव समासः निषिध्यते इक्षूणां भक्षणम् इति भावार्थे हियर् इट् डस् नाट् मीन् भक्षिका इति इट् इस् अक बीङ्ग् कनोटेड् टु इक सो तत्र नूल् प्रत्ययः अस्ति किन्तु तत्र भक्षयति इत्यर्थे भक्षिका इति नास्ति सो दिस् इस् नाट् कर्तरि नूल् ओके अत्र स्त्रियां तिन् इति धात्वर्थनिर्देशे नूल् धात्वर्थनिर्देशः नाम क्रिया भावः नाम धात्वर्थः इति उच्यते सो हियर् द नूल् इण्डिकेट्स् द एक्शन् आफ् भक्षण भक्षणम् इत्येव अर्थः अत एव इक्षूणां भक्षणम् इति विग्रहः दत्तः भक्षणम् इत्यर्थे यत्र नूल् प्रत्ययः अस्ति धात्वर्थनिर्देशे नूल् प्रत्ययः तत्र समासः भवति इक्षुभक्षिका इति रूपं भवति किन्तु यत्र कर्तरि अक नाम नूल् प्रत्ययः तत्र समासः न भवति अत्यर्थभर्तृशब्दस्य तु याजकादित्वात् समासः याजकादिगणः ह्यः दृष्टः तत्र भर्ता इति रूपं भर्ता इति अस्ति भर्ता केन् हाव् टु मीनिङ्ग्स् वन् इस् पतिः इत्यर्थः यः भरणं करोति बिभर्ति सः अपि भर्ता ही हू होल्ड्स् इट् अप् आर् ही हू बेर्स् समथिङ्ग् इस् आल्सो काल्ड् भर्ता यथा अत्र वज्रस्य भर्ता इत्युक्ते ही हू होल्ड्स् द वज्रायुध इत्यर्थः पत्यर्थभर्तृशब्दस्य याचिकादित्वात् समासः यत्र पत्यर्थे भर्तृशब्दस्य प्रयोगः अस्ति तत्र समासः भवति यतोहि भर्तृशब्दः याजकादिगणे पठितः फ्रम् कमेण्टरी कथं ज्ञायते याजकादिगणे पठितः भर्तृशब्दः पत्यर्थकः एव इत्युक्ते व्याख्यानात् ज्ञायते अतः पत्यर्थकस्य भर्तृशब्दस्य यदि प्रयोगः तदा समासः भवति केन सूत्रेण याजकादिभिश्च इति सूत्रेण भूभर्ता भुवः भर्ता भूभर्ता इत्यर्थः तत्र समासः भवति यत्र पत्यर्थकत्वं नास्ति मज्जस्य भर्ता इत्यादिषु तत्र समासः अपि न भवति कथं तर्हि घटानां निर्मातुः त्रिभुवनविधातुश्च कलहः कश्चन प्रयोगः कुत्रतः प्रयोगः इति अहं न जानामि ऐ डोण्ट् नो वेर् एक्साक्ट्लि दिस् इस् फ्रम् घटानां निर्मातुः त्रिभुवनविधातुः इति रूपम् अस्ति त्रिभुवनस्य विधाता त्रिभुवनविधाता इति समासः कृतः सो षष्ठीसमासः विधाता इस् कर्तरि तृच् प्रत्ययः कथं समासः कृतः घटानां निर्मातुः इत्यत्र तु व्यस्ततया प्रयोगः अस्ति त्रिभुवनविधातुः इति कथं समासः इति प्रश्नः Sheshashastya samasaha iti kayyata. So kayyata says, shashti is of two kinds. One is karmani shashti and the other is sheshashasti. Atradu karmani shashtyaha anena nishetaha. Karaka shashtyaha eva ayam nishetaha. Sheshe arthat tribhuvanasya vidhata etcetra karmarthakatvam nasti. Tribhuvanam vidadhati iti karmarthakatvam yada na vivakshitam. When the karmatva is not intended, tadatu sheshe shashti bhavati, sambandharthe shashti bhavati, tena saha samasaha iti kayyataha vadati. So this is actually not, it has already been used and therefore they are trying to substantiate it by saying shesha shashtya samasaha. Vastutaha tu etadashaha prayogaha na yujyate ityartha. So it is better to use it separately as घटानाम निर्मातुः त्रिभुवनस्य विधातुः एव प्रयोगः युज्यते. कर्तञ्च करद्वयम् कर्तरिषष्ठ्याः अकेन न समासः. सो दीस् त्री सूत्रास् प्लीज् अण्डर्स्टाण्ड् देम् क्लियर्लि अण्ड् know what the kartari and karmani is referring to. You have this word in karmani cha ityatrapi, karmani ityasti, sujatabhyam kartari ityasta kartari asti, kartari cha ityasta kartari asti, kena saha sambandhaha iti drashtavyam. Karmani cha ityatra, karmani shashti, karmarthe ya shashti vibhaktihi sthana samasyate iti uchyate. Atrapi kartari cha ityatra, kartarthe ya shashti vibhaktihi sthana samasyate iti uchyate. त्रिधकाभ्याम कर्तरी इत्यत्र तु कर्तृत्वे यः त्रिच् प्रत्ययः अतप्रत्ययान्तः वा तेन सह षष्ठ्याः समासः न भवति इत्युच्यते. इट् डस् नाट् रेफर् टु षष्ठी इन् कर्तृत्व, इट् रेफर्स् टु द प्रत्ययाद् इन् कर्तृत्व, तैः सह समासः न भवति इति उच्यते. कर्तरि षष्ठ्याः कर्तृत्वे या षष्ठी भक्तिः तस्याः अकेन समासः न भवति. भवतः शायिका भवद् शायिका इत्यस्य शयनम् इत्यर्थः. जस्ट् लैक् वि सा भक्षिका इन् द प्रीवियस् थिङ्ग्, धात्वर्थनिर्देशे नूल् प्रत्ययः. सो शायिका मीन्स् शयनम्, स्लीपिङ्ग् इत्यर्थः, द आक्ट् आफ् स्लीपिङ्ग्. भवतः शायिका नाम भवता सुप्तम् इत्यर्थः. युवर् स्लीप् इत्यर्थे युवर् इति भवतः इत्यत्र कर्तरि षष्ठी भक्तिः तस्याः अकेन सह समासः न भवति. So if you remember that ikshubhakshika, ikshunam bhakshanam ityatrato, karmani shashti, ikshunam bhakshanam, the eating or intake of ikshus, sugar cane is, tatra karmani shashtyaha samasaha bhavati, kartrathe yatra shashti vibhaktihi bhavata shayika ityadishu, tatra samasaha nasti. Neha trich anuvartate. त्रिजकाभ्याम कर्तरी इति पूर्वसूत्रे उच्यते. अत्र तु केवलम् अकस्य ग्रहणम् अस्ति अस्ति, त्रिजः ग्रहणं नास्ति. किमर्थम् इत्युक्ते तद्योगे नाम त्रिच् प्रत्ययस्य योगे कर्तुः अभिहितत्वेन त्रिच् इस् आल्वेज् इन् कर्तृत्व. नुलः विषये भेदः अस्ति. नुल् केन् बि इन् कर्तृत्व, इट् केन् आल्सो बि इन् भावार्थ. धात्वर्थनिर्देशे अपि नुल् प्रत्ययः भवति, कर्तृत्वे अपि नुल् प्रत्ययः भवति. तृच् प्रत्ययस्तु सर्वदा कर्तृत्वे एव भवति. अतः यदा यत्र यत्र तृच् प्रत्ययः अस्ति तदा कर्तुः अभिहितत्वेन, सिन्स् द कर्ता हेज् आलरेडि बीन् टोल्ड् बै द तृच् प्रत्यय, कर्तृषष्ठ्याः अभाव, षष्ठी विभक्ति विल् नेवर् हाव् कर्तृत्व इन् असोसियेशन् वित् तृच्. सिन्स् तृच् प्रत्यय इट् सेल्फ् आल्वेज् गिव् द सेन्स् आफ् कर्ता, षष्ठी विल् आल्वेज् बि कर्मणि षष्ठी आर् शेषष्ठी. सो देर् फोर् कर्तरि च इत्यत्र तृचः अन्वयः नास्ति. मूलः विषये तु कर्तरि अपि नूल् प्रत्ययः भवितुम् अर्हति, धात्वर्थे भावार्थे अपि नूल् भवति. यत्र कर्तरि नूल् प्रत्ययः भवति तत्र समासः नास्ति. यदा धात्वर्थे भावार्थे नूल् प्रत्ययः भवति तत्र द्वेधा सम्भवः अस्ति. कर्तरि षष्ठी भवितुमर्हति, कर्मणि अपि षष्ठी भवितुमर्हति. कर्मणि षष्ठ्याः समासः भवति, कर्तरि षष्ठ्याः समासः न भवति. Is that clear? Prashnaah santi va? Any questions?
Okay, there are two pratyayas here. There is one prich and there is aka. Prich pratyaya sarvada kartarthe eva bhavati. Prich always indicates the karta. Karoti iti karta. Vibhakti iti karta, etc. So, when in association with prich, since prich has already given the karta, kartuho abhihitatvata, kartari shashti na bhavati. Again, shashti vibhakti cannot be in kartartha. Since the karta has already been given by prich, Shashti, if it is there, will always be in karmartha. Odanasya pasakaha ityate odanam karma. Odanam pachati ityatha. Pasakaha ityatra shamyatam. Odanasya pakta. We are talking about trich. So wherever you have trich pratyaya, karta has already been given by trich pratyaya. So there will never be kartari shashti. Kartari shashti vibhakti na bhavateva. Karmani eva shashti vibhakti bhavati. And that shashti will not have samasa. Tijakabhyam kartari. Iti uktatvata kartarthe tijpratyena yoge shashti vipakte entrasya samasaha na bhavati. So there is no samasa with trijanta, which is clear. When you come to akha, which is nul pratyaya kartarthe api bhavati, bhavarthe, nama dhatsarthe api bhavati, kriyarthe. So it can either indicate the karta or it can indicate the kriya. Yada karta nul pratyayena abhihitaha, yada pachakaha, pachati iti pachakaha rachata, karta abhihitaha, abhihitatvatu karmani shashti bhavati, odanasya pachakaha, samasaha na bhavati. So karmani shashti and kartari nul, there is no samasa. The next possibility, when nul gives kriya, when it is in the sense of dhatvartha, dhatvartha yada nul pratyayaha, tada karta api anabhihitaha, karma api anabhihitam. It gives neither karta nor karma. So, there are two cases. There can be shashti vibhakti in kartartha, there can be shashti vibhakti in karmartha. When associated with nul in dhatvartha. Yada kartarthe nul pratyaha, tada karmarthe shashti bhavati samasahana bhavati. Yada dhatvartha nul pratyaha, tada kartari shashti bhavitam arhati, karmani api shashti bhavitam arhati. Yadi karmani shashti. So there are three different combinations. One, the first combination is karmani shashti and kartari nul. Tada samasaha nishidhyate. Kena sutrena trijakabhyam kartari ityanena samasaha nishiddhaha. Odanasya pachakaha iti vyatstaha prayogaha. Yada karmani shashti bhavati dhatvarthe nul bhavati. Tada samasaha bhavati. Ikshunam bhakshanam ikshubhakshika iti dattam. So tatra samasaha bhavati. Yada tu kartari shashti dhatvarthe nul pratyaha, tada punaha samasaha na bhavati, bhavatashayita iti, samasa nishedhastu kartari cha iti sutrena. Is that okay? It needs some time to be digested. I'll include that slide in, I'll make a slide where you see where it is. But there are these three options. There's one option where there is karmani shashti and kartari nul. There is one where karmani shashti, dhatvarthe nul. Kartari shashti and dhatvarthe nul. So in two cases there is no samasa. Yada tu karmani shashti tatha dhatvarthe nul tada samasaha bhavati. I'll include that. Okay. So let's move on. Nityam krida jivikayoho iti sutram asmin prakarane antimam sutram. Etayor arthakena nityam shashti samasyate. We finished na. So far we were seeing shashti na samasyate, eta shashti samasaha na bhavati tadeva drishtam. We are seeing cases where there is no shashti samasa. Hariyam. Etavat paryantam shashtyaha nishedha uktaha, shashti samasasya nishedha uktaha.
अतः षष्ठी न समस्यते इति. अत्र तु अन्ते प्रकरणस्य अन्ते षष्ठी समासः भवति नित्यं भवति इति उच्यते. नित्यं क्रीडाजीविकयोः एतयोरर्थकेन नित्यं षष्ठी समस्यते. षष्ठी समासः यदा षष्ठी इत्यनेन समासः भवति समासः विकल्पः. राज्ञः पुरुषः इत्यपि रूपं भवति राजपुरुषः इत्यपि रूपं भवति. समासः बै इट्सेल्फ इज ऑप्शनल बट इन दिस केस हि इज गिविंग ए नित्य समास फॉर षष्ठी. क्रीडा इत्यर्थे जीविका इत्यर्थे यत्र प्रयोगः अस्ति तत्र यत्र समस्तपदेन क्रीडा इत्यर्थः गम्यते जीविका इत्यर्थः वा गम्यते तत्र नित्यं षष्ठी समासः भवति इत्यर्थः. वेन् द समस्तपद गिव्स् द सेन्स् आफ् क्रीडा अ स्पोर्ट् अ जीविका. जीविका इस् अ प्रोफेशन् दट् मै बि समबडी इस् लिविङ्ग्. उद्दालक पुष्पभञ्जिका इति उदाहरणं क्रीडायाः. सो दिस् इस् द नेम् आफ् अ स्पोर्ट् वेर् there is some it involves the bhanjana of uddalaka pushpas. That is true. Kintu yadi vyastataya prayogah kriyate tada krida ityarthah nagamyate. Ataha uddalaka pushpa bhanjika iti kridayah samyaya. It is the name of a sport. Atra uddalaka pushpa iti shashti asti. Uddalaka pushpa aam bhanjika soup iti. But there is no laukika vigraha vakya. Since he says nitya samasa, there is no laukika vigraha vakya. Krida visheshasya samnya. This is the name of a krida. Samnyayam iti bhave nul. So bhandika ityatra nul pratyahaski bhavarthe dhatvarthe. So it is a name of a sport. Jivikaya danta lekha kaha. लेख अत्र इट् रेफर्स् टु ए प्रोफेशन् दन्तानां लेखनेन जीवति इत्यर्थे. वाट् एक्साक्ट्ली इस् मेण्ट् बै लेखन हियर् ऐ एम् नाट् श्योर्. ऐ वाण्ट् टु रेफर् टु इट् अण्ड् फैण्ड् औट् दन्तानां लेखनम् इत्यनेन किं विवक्षितम् इति मयापि द्रष्टव्यं. दृष्ट्वा वदामि. किन्तु इट् इस् अ प्रोफेशन्. दन्तलेखकः इस् अ प्रोफेशनल् हु लिव्स् वित् द प्रोफेशन् आफ् दन्तलेखन. क्रीडायां जीविकायां च किं नित्यं समासः भवति इत्यर्थः. तत्र क्रीडायां विकल्पे जीविकायां त्रिजकाभ्यां कर्तरि इति निषेधे प्राप्ते वचनम्. सो वै इस् हि गिविङ्ग् नित्यसमासः. वाट् वुड् हेव् हेपन् इफ् दिस् सूत्र वर् नाट् देर्. अस्य सूत्रस्य अभावे किं स्यात् पश्यामश्चेत् क्रीडायाम् अर्थात् उद्दालकपुष्पभञ्जिका इत्यत्र विकल्पेन षष्ठी समासः प्राप्तः. अत्र कर्मणि षष्ठी धात्वर्थे नुल् भावे नाम धात्वर्थे नुल्. वि डिस्कस् द त्री आप्शन्स् जस्ट् नौ. देर् इस् देर् टु केसस् इन् विच् समासा इस् प्रिवेण्टेड् एण्ड् देर् इस् वन् केस् विच् समासा केन् हेपन् जस्ट् लैक् इक्षूणां भक्षणम् इक्षुभक्षिका. अत्रापि उद्दालकपुष्पाणां भञ्जनम् इत्यर्थे समासः भवितुम् अर्हति किन्तु विकल्पेन भवति. इन् द एब्सेन्स् आफ् दिस् सूत्र इफ् दिस् सूत्र वर् नाट् देर् samasa would have taken place in uddalaka pushpa bhandika, but it would have been an optional samasa. Optional samasa by shashti, by the sutra shashti, the samasa would have been optional, but Pani wants the samasa to be compulsory. Ataha atra uchyate nityam krida iti. Kridayam vikalpe prapte vachanam. Jivikayam trijakabhyam kartari iti nishedhe prapte. When you come to dantanam lekhakaha, atra lekhakaha iti कर्तरि नुल् प्रत्ययः. कर्तरि नुल् प्रत्ययः दन्त इति कर्मणि षष्ठी. सो इन् दिस् केस् त्रिजकाभ्यां कर्तरि इत्यनेन समासः निषिध्यते. यत्र कर्तरि नुल् प्रत्ययः अस्ति तत्र समासः निषिद्धः. तं निषेधं बाधितुम् अत्र सूत्रे जीविका ग्रहणम्. सो क्रीडायाः विषये षष्ठी इति सूत्रेण समासविकल्पः प्राप्तः. जीविकायाः विषये त्रिजकाभ्यां कर्तरि इति निषेधः प्राप्तः. उभौ अपि बाधित्वा अनेन सूत्रेण नित्यं समासः विधीयते. इट् ओवर् रूल्स् बोत् द वैकल्पिक समास एण्ड् समास निषेध एण्ड् गिव्स् अ नित्य समास इन् दीस् टु केसस्. उद्दालक पुष्पभञ्जिका एण्ड् दन्तलेखकः. ओके, एनी क्वेश्चन्स्? अत्र षष्ठीसमास प्रकरणं समाप्तम्. दट् कम्प्लीट् षष्ठीसमास. दट् इस् षष्ठीसमास एण्ड् षष्ठीसमास निषेध. सो वी हव् कवर्ड् तत्पुरुष स्टार्टिङ्ग् फ्रम् द्वितीया to saptami. Tritiya, tritiya, chaturthi, panchami, saptami, tataha shashti samasaha adhitaha. There is also something called prathama tatpurusha. Right? You should have heard of it. In normal parlance, we call it as prathama tatpurusha. But according to grammar, according to Panini, or Vyakaranas prefer to call it as an ekadeshi samasa. So we will see that samasa in the next class. Any questions? येनाक्षर समाम नाय मधि गम्य महेश्वरान तुक्तम व्याकरणम प्रोक्तम तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं सत्प्रणतोऽस्मि मुनित्रयम् मुनित्रयम् नमस्तस्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते।